इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी अथ वार्ताः पूर्वप्रधानमन्त्रिणः डॉक्टर मनमोहनसिंहस्य गतरात्रौ दिल्ल्याः अखिलभारतीयायुर्विज्ञानसंस्थाने द्विनवतिवर्षावस्थायाम् निधनम् जातम् असौ गभीरावस्थायाम् ह्यः सायंकाले अष्टवादने चिकित्सालयस्य अस्य आपत्कालिकविभागे उपचारार्थम् प्रवेशितः पूर्वप्रधानमन्त्री ह्यः सायंकाले स्वगृहे सहसैव चेतनारहितो जातः आसीत् चिकित्सकैः सर्वविधप्रयासानाम् अनन्तरमपि असौ एकपञ्चाशन्निमेषाधिकनववादने रात्रौ स्वप्राणान् अत्यजत् डॉक्टर सिंहः विगतमासेभ्यः अस्वस्थः आसीत् तस्य कुटुम्बे पत्नी गुरुशरणकौरः अपि च तिस्रः पुत्रः सन्तीति डॉक्टर सिंहः तात्कालिकप्रधानमन्त्रिणः पीवी नरसिंहरावस्य कार्यकाले वित्तमन्त्री आसीत् यो हि एकनवत्यधिकनवदशशततमे वर्षे आर्थिकपरिष्काराणां शिल्पकारत्वेन आसीद् इति मन्यते एतदतिरिच्य डॉक्टर मनमोहनसिंहः चतुरधिकद्विसहस्रतमवर्षतः चतुर्दशाधिकद्विसहस्रतमवर्षपर्यन्तम् कांग्रेसदलनेतृत्वाधायिनी यूपीए इत्येतस्मिन् प्रशासने वारद्वयम् प्रधानमन्त्रिणः कार्यभालम् निभालितवान् आसीत् त्रयस्त्रिंशत् वर्षाणि यावत् सेवारतः असौ अस्य वर्षस्य अप्रैलमासे राज्यसभायाः सेवानिवृत्तः अभवत् द्वात्रिंशदधिकनवदशशततमे वर्षे सितम्बरमासे षड्विंशे दिनांके अविभक्तभारतस्य पंजाबप्रान्तस्य एकस्मिन् ग्रामे जनितः एषः चतुरधिकद्विसहस्रतमवर्षात् चतुर्दशाधिकद्विसहस्रतमवर्षं यावत् भारतस्य त्रयोदशप्रधानमन्त्रीरूपेण कार्यम् अकरोत् पूर्वप्रधानमन्त्रिणः डॉक्टर मनमोहनसिंहस्य निधनमवलम्ब्य तस्य च सम्माने सप्तदिवसात्मकः राष्ट्रियशोकः घोषितो भविष्यति अद्य सर्वे निर्धारिताः प्राशासकीय कार्यक्रमाः निरस्तीकृताः डॉक्टर मनमोहनसिंहस्य अन्तिमसंस्कारः पूर्ण राजकीय सम्मानेन सह भविष्यति अद्य प्रातःकाले एकादशवादने केन्द्रीयमन्त्रिमण्डलस्य उपवेशनम् निर्धारितम् वर्तते इति डॉक्टर मनमोहनसिंहस्य निधने राष्ट्रपतिः द्रौपदी मुर्मुः उपराष्ट्रपतिः जगदीपधनखडः प्रधानमन्त्री नरेन्द्रमोदी च शोकसंवेदनाम् प्रकटितवन्तः राष्ट्रपतिपदासीनया द्रौपदी मुर्मू इत्यनया वीरबालदिवसावसरे नवदिल्ल्याम् उत्कृष्टोपलब्धिलब्धिभ्यः सप्तदश बालेभ्यः प्रधानमन्त्री राष्ट्रिय बाल पुरस्काराः प्रदत्ताः एतेभ्यः बालेभ्यः कला संस्कृत्यै वीरतायै नवाचाराय सामाजिक सेवायै क्रीडायै पर्यावरणस्य क्षेत्रे विशिष्ट योगदानाय च सम्मानानि प्रदत्तानि प्रत्येकस्मै पुरस्कार विजेत्रे पदकं प्रमाणपत्रं प्रशस्ति पुस्तिका च प्रदत्ता प्रधानमन्त्री नरेन्द्र मोदी महिला बाल विकास मन्त्री अन्नपूर्णा देवी च अत्रावसरे उपस्थितौ आस्ताम् प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोदीरितं यत् भारतीय लोकतन्त्रस्य व्यापकता गुरूणां शिक्षायां साहिबजादे इत्येतेषां बलिदाने देशस्य एकतायाः मूलमन्त्रे च आधृता वर्तते ह्यः नवदिल्ल्यां भारतमण्डपम् इत्यत्र वीरबालदिवससमारोहं सम्बोधयन् प्रधानमन्त्री उक्तवान् यत् गुरूणां परम्पराभिः वयं शिक्षिताः यत् सर्वे समानाधारेण दृष्ट्या द्रष्टव्यः इति राष्ट्रस्य संविधानमपि अस्मान् तथैव शिक्षयति प्रधानमन्त्री उक्तवान् यत् वीरसाहिबजादे इत्येतेषां जीवनम् अस्मान् शिक्षयति यत् देशस्य अखण्डतया सह विचारधारया सममपि शैथिल्यताम् आनेतुं न शक्यते इति श्रीमोदिना अत्रावधौ घोषितं यत् आगामि वर्षारम्भे स्वामी विवेकानन्द जयन्त्यवसरे विकसित भारत युवनेत्री संवादः आयोजयिष्यते इति वार्ताः